धनुष्मान् चतुर्भुज सूर्यसुतः प्रशान्तः सः सदा वरदः प्रसन्नः
अष्टमजन्मक्षे द्वितीयस्थाने त्वत्सञ्चारोद्भवा दोषा सर्वे नश्यन्तु मे प्रभो पुत्राय शनैश्चराय तमालनीलाम्बुजमेचकाय श्रुत्वा स्तुतिं मे भव कामदस्त्वं फलप्रदो मे भव सूर्यपुत्र सरस्वतीं देवीं ध्यात्वा सरस्वतीं ध्यात्वा शरथस्तोत्रं सौरुरिदाककरोत् नमः नीलाय शिखिकण्ठ निभाय च
नमो 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 निर्मो निर्म नमो नमो
नेत्राय शुष्कोदर भयानक शुष्कोदर भयानक शुष्कोदर भयानक
नमस्ते गौर
मृत्युस्थानगते वापि जन्मस्थानगते अपि वा यः पुमान् श्रद्धया युक्तः शुचिः स्नात्वा समाहितः शमीपत्र्यै समभ्यर्च्य प्रतिमां लोहजां मम माशोदनं तिलैर्मिश्रं दद्यालोहं तु दक्षिणां कृष्णाङ्गां महिषीं वस्त्रं मामुद्दिश्य द्विजातये मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् पूजयित्वा जपेत् स्तोत्रं पूजयित्वा चैव कृताञ्जलिः तस्य पीडां न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने च दशास्वन्तर्दशासु च रक्षामि सततं तं हि पीडाभ्योऽन्यग्रहस्य च अनेनैव प्रकारेण पीडामुक्तं जगत् भवेत् अनेनैव प्रकारेण पीडामुक्तं जगत् भवेत् पीडामुक्तं जगत् भवेत्।